इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः पुनीत त्रिपाठी। आदौ मुख्य वार्ताः। विपक्षस्य कोलाहलेन लोकसभा अद्य दिवसाय स्थगितम्। अध्यक्षेण ओम बिरला वर्येण अन्तरिक्षयात्रिणं शुभांशु शुक्लं वर्धापितम्। अद्य संसदा भारतीय पत्तन विधेयकं 25,000 राज्यसभायाः स्वीकरणानन्तरं पारितम्। विधेयकस्यास्य उद्देश्यं राज्य सागरीय मण्डलानां शक्तिकरणम् अस्ति। केन्द्रीय कृषि कृषक कल्याण मन्त्री शिवराज सिंह चौहान अवदत् यत् कृत्रिम कीटनाशकानां उर्वरकानां बीजानां च निर्माणे संलग्नानां कम्पनी विशेषानां विरुद्धं कठोराचरणं भविष्यति। अपि च डोनाल्ड ट्रम्पेन स्वसमकक्षं व्लादिमीर जेलेंस्की इत्यमुं परामृष्टं यत् सः रूसदेशेन अधिकृतेषु केषुचित् क्षेत्रेषु स्वाधिकारं त्यजतु इति। अथ वार्ताः विस्तरेण। विपक्षस्य कोलाहलेन लोकसभा अद्य दिवसाय स्थगितम्। अध्यक्षेण ओम बिरला वर्येण अन्तरिक्षयात्रिणं शुभांशु शुक्लं वर्धापितम्।
ग्रुप कैप्टन श्री शुभांश शुक्ला की ये उपलब्धि हमारे युवाओं के लिए बड़ी प्रेरणा है। आज भारत का अंतरिक्ष कार्यक्रम वैज्ञानिक श्रेष्ठता और विशिष्टता से और विशेषणता से पूरे विश्व में अपनी विशेष पहचान बना चुका है। मैं सभी माननीय सदस्यों से आग्रह करता हूं कि इस महत्वपूर्ण विषय पर व्यापक चर्चा संवाद करें।
सभायां विज्ञान प्रौद्योगिकी मंत्री डॉ जितेन्द्र सिंह अद्य 35,000 वर्ष पर्यन्तं भारतीयांतरिक्ष केन्द्रस्य परिचालनस्य स्थापनार्थं 40,000 वर्ष पर्यन्तं च भारतीय मानवयुत अभियानं चन्द्रमसि प्रेषयितुं सर्वकारस्य प्रतिबद्धतां पुनः दृढीकृतवान्। लोकसभायाम् अन्ताराष्ट्रिय अन्तरिक्षस्थानके भारतस्य प्रथमस्य अन्तरिक्षयात्रिणः विषये विशेषचर्चायाः समये श्रीसिंहवर्यः अवदत् यत् एतानि लक्ष्याणि 47,000 विकसित भारत इत्यस्य लक्ष्यात् पूर्वमेव प्राप्तानि भविष्यन्ति इति। सः IAF इति समूहस्य कैप्टन शुभांशु शुक्लस्य ऐतिहासिकस्य ISS अभियानस्य प्रशंसाम् अकरोत्, तथा च प्रधानमन्त्रिणः नरेन्द्रमोदिनः नेतृत्वे अन्तरिक्षक्षेत्रे जातानि विशिष्ट परिवर्तनानि अधोरेखितवान्। श्रीसिंहः ऑपरेशन सिन्धूर इत्यस्य समये स्वदेशीय अन्तरिक्ष प्रौद्योगिकीनाम् उपयोगम् अपि उल्लिखत्, तथा च आर्थिक विकासे लोककल्याणे च अस्य क्षेत्रस्य भूमिकामपि अस्थापयत्। सः चर्चायाः समये विपक्षस्य विरोध प्रदर्शने दुःखं प्रकटितवान् यत् ते वैज्ञानिकानाम् अन्तरिक्ष विशेषज्ञानां च योगदानं स्वीकर्तुं विफलाः अभवन् इति। अद्य संसदा भारतीय पत्तन विधेयकं 25,000 राज्यसभायाः स्वीकरणानन्तरं पारितम्। अस्य विधेयकस्य उद्देश्यं राज्य सागरीय मण्डलानां शक्तिकरणं, सागरीय राज्य विकास परिषदः स्थापना, सुरक्षां, प्रदूषण नियन्त्रणं, विवाद निराकरणं, प्रमुख पत्तनानां विनियमनस्य आधुनिकीकरणं चास्ति। पत्तन मन्त्री सर्बानन्द सोनोवालः अवदत् यत् एतत् विधेयकं पत्तन नियमान् एकीकृतं करिष्यति, एकीकृत विकासं प्रवर्तयिष्यति, व्यापारे सुगमतां च वर्धयिष्यति इति। राष्ट्रपति द्रौपदी मुर्मू अद्य नवदिल्ल्यां जनजातीय कार्य मन्त्रालयस्य आदिकर्मयोगी अभियानस्यान्तर्गतं विविध राज्यानां प्रातिनिधित्वं कुर्वतां जनजातीय समूहेन सह मिलितवती। एकस्मिन् सोशल मीडिया सन्देशे राष्ट्रपतिः मुर्मू प्रोक्तवती यत् जनजातीय समुदायानां अमूल्य ज्ञानं, तेषां सांस्कृतिक परम्पराः, तेषां जीवनशैल्यः च संरक्षितव्यः इति। राष्ट्रपतिः इतोपि आदिवासी समुदायानां समर्थनं याचितवती, तथा च उक्तवती यत् ते समुचित आदरेण सम्मानेन च देशस्य विकासयात्रायां सक्रिय सहभागिनः भवितुम् अर्हन्ति इति। संस्कृत वार्तायाः संस्करणमिदम् इदानीम् आकाशवाणीतः प्रसार्यते। सममेव अयं कार्यक्रमः आकाशवाण्याः www.newsonair.gov.in वेबसाइट इत्यत्र अथ न्यूज ऑन AIR मोबाइल ऐप इत्यत्र अपि उपलब्धो भविष्यति। केन्द्रीय कृषि कृषक कल्याण मंत्री शिवराज सिंह चौहान अवदत् यत् कृत्रिम कीटनाशकानां उर्वरकानां बीजानां च निर्माणे संलग्नानां कंपनी विशेषानां विरुद्धं कठोराचरणं भविष्यति इति। श्री चौहान विषाक्त रसायनानां सिंचनेन सोयाबीन सस्यानां क्षतेः मूल्यांकनाय मध्यप्रदेशं गतवान्। केन्द्रीय कृषि कृषक कल्याण मन्त्रिणा शिवराज सिंह चौहानेन कृत्रिम विषाक्त रसायनानां कारणात् सोयाबीन सस्यानां क्षतिः अभवत् इति आक्षेपः प्राप्तः आसीत्। तदनन्तरं श्री चौहानः रायसेन विदिशा जनपदयोः प्रभावित क्षेत्राणि गत्वा क्षतेः निरीक्षणं कृतवान्। सः अवदत् यत् एतादृशानां कम्पनी विशेषानां विरुद्धं अभियानम् आरभ्यते इति।
खेत में सोयाबीन की जगह खरपतवार खड़ा है, किसी HPM कंपनी की दवाई डालने के कारण ये हुआ है। एक उच्च स्तरीय वैज्ञानिकों का दल इन खेतों का निरीक्षण करेगा और जिस कंपनी ने ऐसी दवाई दी किसानों जिससे किसान तबाह हो गए, विधि सम्मत सख्त कार्रवाई उसके खिलाफ की जाएगी और एक अभियान शुरू होगा पूरे देश में ऐसी कंपनियों के खिलाफ।
श्री चौहानस्य निर्देशानुसारं कार्यं कुर्वन् भारतीय कृषि अनुसंधान परिषदः तत्क्षणमेव अन्वेषण समितेः निर्माणम् अकरोत्। समितिः अद्य क्षेत्राणां भ्रमणं कृत्वा सस्यानां क्षतेः परिमाणस्य मूल्यांकनं करोति। आगामि उपराष्ट्रपति निर्वाचनार्थं महाराष्ट्रस्य राज्यपालः CP राधाकृष्णनवर्यः राष्ट्रिय लोकतांत्रिक गठबंधनस्य प्रत्याशी भविष्यति। भाजपा दलस्य राष्ट्राध्यक्षस्य केन्द्रीय मंत्री JP नड्डा इत्यस्य गतसायं नवदिल्ल्यां संसदीय मण्डलस्य उपवेशनानन्तरं वार्ताहरान् सम्बोधनानन्तरं इमां घोषणाम् अभवत्। NDA गठबंधनस्य उपराष्ट्रपतिपदस्य प्रत्याशी CP राधाकृष्णन वर्यः अद्य नवदिल्ल्यां प्रधानमन्त्रिणः नरेन्द्र मोदिनः इत्यनेन सह मेलनम् अकरोत्। सोशल मीडिया संदेशे श्रीमोदिना प्रकाशितं यत् दीर्घकालिक सार्वजनिक जीवने राधाकृष्णनवर्यः स्वस्य समर्पणेन विनयेन बुद्ध्या च विशिष्टः अभवत्। प्रधानमन्त्रिणा अग्रे विश्वासः प्रकटितः यत् राधाकृष्णनमहोदयः प्रेरणादायकः उपराष्ट्रपतिः भविष्यति। ऋतुविभागेन अद्य छत्तीसगढ़स्य ओडिशाराज्यस्य तेलंगानाराज्यस्य तटीय आन्ध्रप्रदेशस्य महाराष्ट्रस्य च केषुचित् भागेषु अत्यधिक वृष्टेः रक्तवर्णीया सूचना प्रसारिता अस्ति। मुम्बईनगरे प्रचण्ड वृष्ट्या रेलयानानि विलम्बितानि, विमानयानानि च बाधितानि, विद्यालयाः स्थगिताः। ओडिशाराज्यस्य मल्कानगिरिमण्डले जलाप्लवनेन येन मार्गसम्पर्कः विच्छिन्नः अभवत्। विशाखापत्तनम पूर्व गोदावरी इत्यादीनां उत्तर तटीय आन्ध्रप्रदेशस्य मण्डलानां कृतेपि रक्त संचेतना प्रसारिता अस्ति। अस्मिन् सप्ताहे पूर्वोत्तर भारते मध्य भारते जम्मू कश्मीरे च प्रचण्ड वृष्टिः भविष्यति। अमेरिकी राष्ट्रपतिना डोनाल्ड ट्रम्पेन स्वकीयेन यूक्रेन देशस्य स्वसमकक्षेण व्लादिमीर जेलेंस्की इत्यमुं परामृष्टं यत् सः रूसदेशस्य अधिकृतेषु केषुचित् क्षेत्रेषु स्वाधिकारं त्यजतु इति। जेलेंस्की अद्य यूरोपीय नेतॄणां समूहेन सह ओवल कार्यालये ट्रम्पेन सह मेलनं करिष्यति। ह्यः ट्रम्पेन ट्रुथ सोशल इत्यत्र एकस्मिन् सन्देशे उक्तं यत् राष्ट्रपतिः जेलेंस्की रूसदेशेन सह युद्धं प्रायः तत्क्षणमेव समाप्तुं शक्नोति यदि सः इच्छति, अथवा सः युद्धं निरन्तरं कर्तुं शक्नोति। ट्रम्पः 2014 वर्षे यूक्रेन देशस्य क्रिमिया द्वीप समूहे रूसदेशेन तदा सैन्य प्रतिरोधं विनैव कृत अतिक्रमणस्य उल्लेखं कुर्वन् आसीत् यदा बराक ओबामा राष्ट्रपतिः आसीत्। यूक्रेन देशस्य 20% क्षेत्रेषु रूसदेशेन अतिक्रमणं कृतम् अस्ति। अन्ते मुख्यवार्ताः पुनः एकवारम्। विपक्षस्य कोलाहलेन लोकसभा अद्य दिवसाय स्थगितम्। अध्यक्षेण ओम बिरला वर्येण अन्तरिक्षयात्रिणं शुभांशु शुक्लं वर्धापितम्। अद्य संसदा भारतीय पत्तन विधेयकं 25,000,000 राज्यसभायाः स्वीकरणानन्तरं पारितम्। विधेयकस्यास्य उद्देश्यं राज्यसागरीय मण्डलानां शक्तिकरणम् अस्ति। केन्द्रीय कृषि कृषक कल्याण मन्त्री शिवराज सिंह चौहान अवदत् यत् कृत्रिम कीटनाशकानां उर्वरकाणां बीजानां च निर्माणे संलग्नानां विशेषानां कंपनीनां विरुद्धं कठोराचरणं भविष्यति इति वार्ताः।